कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनश्रृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोतनिषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातनिष शिवतमा शिवम् बभूवते धनुः शिवाशरप्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनुरघोरपापकाशिनी तयानस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः याभिषुम् गिरिशन्तमस्ते विभक्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि कुंशे पुरुषम् जगत् शिवे नवचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिच्जगद यक्ष्मगुम् सुमना असत् अध्यवोचननिवक्ता प्रथमो दैव्यो विशक् अहेगश्च सर्वाञ्जम् वयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उतमभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेडयीमहे असौव्यो वसत्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नदहात्यतैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राख्याय मेणुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मीयोर्जाम् याश्च ते हस्तैषवः पराता भगवो मम अवतत्य धनुस्वगुम् सहस्राक्षशतेषु ते निषेव्यशल्याणाम् मुखा शिवो न सुमना भव निर्जम् धनु कपर्दिनो विशल्यो बाणवागुम् उदा अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवति धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नाथताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्नत्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికారాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవేతే దిశాంశపతయే నమో నమో వృక్షేభ్య హరికేశేభ్య పశూనాం పతయే నమో నమః. సస్పింజరాయ త్రిషీమతే పతీనాం పతయే నమో నమో. వమ్లుషాయ విద్యాధినేన్నానాం పతయే నమో నమో. హరికేశాయోపవేతినే భ్రష్టానాం పతయే నమో నమో. భవస్య హేత్యే జగతాం పతయే నమో నమో. రుద్రాయ తథావినే క్షేత్రాణాం పతయే నమో నమః. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే పారివస్కృతాయ ఔషధీనాం పతయే నమో నమః. ఉచ్చైర్ఘోషాయ క్రందయతే పత్నీనాం పతయే నమో నమః. కృష్ణవేదాయ ధావతే సత్వనాం పతయే నమః. నమః సహమానాయ నిర్వ్యాధినావ్యాధినీనాం పతయే నమో నమః. ककुभाय निषंगिने स्थेनानां पदये नमो नमो. निषंगिण इषुधिमते तत्कराणां पदये नमो नमो. वञ्चते परिवञ्चते स्तायूनां पदये नमो नमो. निचेरवे परिचरायारण्यानां పతయే నమో నమస్కావిభ్యో జిగాగుం సద్భ్యో ముష్ణతాం పతయే నమో నమో. శ్రీమద్భ్యో న క్రంచరభ్య ప్రకృంతానాం పతయే నమో నమ. ఉష్ణేషిణే గిరిచరాయ కులంచానాం పతయే నమో నమ. ఇషుమద్భ్యోధన్వామిభ్యశ్చ వో నమో నమ. ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ. ఆయచ్చద్భ్యో విసృజభ్యశ్చ వో నమో. నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ. ఆసీనేభ్యశ్చయానేభ్యశ్చ వో నమో నమ. సమన్యోజాగ్రభ్యశ్చ వో నమో నమ. శిష్టన్యోధావద్భ్యశ్చ వో నమో నమ. సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమ. అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమ. నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో. నమ ఉగణాభ్యస్త్రిగుంహతేభ్యశ్చ వో నమో నమో. వృత్సేభ్యో వృత్సపతిభ్యశ్చ వో నమో నమో. రాతేభ్యో రాతపతిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. నిరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహత్యః శల్యకేభ్యశ్చ వో నమో నమో. రథిభ్యో రథేభ్యశ్చ వో నమో నమో. రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ. సేనాభ్యస్ సేనానిభ్యశ్చ వో నమో నమః. శత్రుభ్యః సంగ్రహేతృభ్యశ్చ వో నమో నమః సక్షభ్యోరథకారేభ్యశ్చ వో నమో నమః కృణాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుమృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యస్వనిభ్యశ్చ వో నమో నమ స్వభ్యస్వమనిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః సర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శృతికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతనందనే చ నమో గిరిశాయ చ శిమిష్టాయ చ నమో మేధుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో హృహతే చ వశ్చేయసే చ నమో వృద్ధాయ చ సంవృద్ధనే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శేభ్యాయ చ నమః ఔన్యాయ చావసన్యాయ చ నమః శ్రోతస్యాయ చ నేప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ ప్రగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమః సౌభ్యాయ చ ప్రతిసర్గ్యాయ చ నమో న్యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కల్యాయ చ నమః శౌక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్షాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో అర్మిణే చ వరుతినే చ నమో విష్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందభ్యాయ చ హనన్యాయ చ నమో నిష్ణవే చ ప్రవృషాయ చ నమో నౌతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషు ధీమతే చ నమః శీక్ష్ణే చ వేచాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః సత్యాయ చ మత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః చోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కౌప్యాయ చ వట్ప్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః నేత్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తవాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సాంబ్రాయ చ అరుణాయ చ నమః సంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వదాయ చ దూరే వదాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః తీర్థ్యాయ చ తుల్యాయ చ నమః वाक्याय च वाक्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च नात्याय च नमः षष्ठ्याय च वेन्याय च नमः सिकत्याय च प्रवाक्याय च नमः हिरण्याय च प्रवत्याय च नमः केगुंशिलाय च शयनाय च नमः कवर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः कार्त्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नमः पागुंसभ्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लभ्याय च नमः हौर्भ्याय च सूर्याय च नमः पन्याय च वर्णशत्याय च नमो हगुरमाणाय च भिघ्नते च नमः आखिदते च प्रखिदते च नमो हत्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो भिक्षीणकेभ्यो नमो विचिन्वक्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवक्केभ्यः द्राभे अन्धसस्पदे दरिद्रं नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाभेषजे शिवारुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कवर्तिने शयत्वेराय प्रवरामहे मतिम् यथा न श्रमस विमदे च दुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रोतनो मयस्कृति शयत्वेराय नमसा विधेमते यच्छञ्चयोश्च मनुरायजे यदा तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मानवक्षन्तमुतमानवक्षितम् मानो वहे पितरम् मातमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तौकेतनये मान आयुषि मानो गोषु मानो हस्वेषुरीरिषः नो रुद्रभामितो वदे हविष्मन्तो नमसा विधेमते आरात्ते को न उत पूरुषग्ने शयत्वेराय सुम् नमस्मे ते अस्तु रक्षा च नो हरि च देव ब्रूयथा च न शर्म यच्च निवर्हाः सुनिश्रुतम् गत्तसदम् युवानम् मृगन्धभीममुपहत्तमुग्रम् मृणाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवमन्तसेनाः हरिणो रुद्रस्य एतिर्वृणक्तु परित्वेषस्य दुर्मतिरगायोः अवस्थिना भगवद्व्यस्तनुष्वमीढस्तोकायतनयाय मृणया मेधुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निनाय कृत्तिम् वसान आचर पिनाकम् विभ्रदागहे विगिरिदमिलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्भेतयोन्यमस्मन्निव पन्तुताः सहस्राणि सहस्रगा बाहो सवहेतयः तासामीशानो भगव पराचीन मुखाकृति सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागुं सहस्रयो जने वदन्तानि तन्मसि अस्मिन् महत्यर्णवे अन्तरिक्षे भवा अधि नैलग्रीवाशिकण्डा सर्वा अधः क्षमाचराः नैलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रुताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवाविलोहिताः ये भूतानामधिपतयो विशिखासक्कवर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विवतो जनान् ये पथाम् परिरक्षय ऐलमृदाय युनः ये तीर्थानि प्रचरन्ति शुकाभन्तो निषङ्गिणः य एतावन्तश्च भूयागुम् स्वश्च दिशो रुद्रामितस्थिरे तेषागुम् सहस्रयो जने वदन्तानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्तरिक्षे ये दिव्येषामन्नम् मातो वर्षमिषवस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रतीचे दशोदीचे दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् निष्मो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् वर्वारुकमिव वन्दनात् मृत्यो मुख्येयमामृतात् यो रुद्र अग्नौ यो अप्सुय ओषधेषु यो रुद्रमिः भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशामृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रमाविशान्तकः तेनान्येनाभ्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्कर्यस्वशु सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भेद्देववसुरम् तवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्ववे शयो यगुम् शैवाभिमर्शनः ॐ शान्ति 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 ॐ शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे दत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीलं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सौषा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः ॐ अक्त्रिणा त्वाग्रे हन्मे कर्मेण जमदग्निना विश्वावसो ब्रह्मणा हतः कृमीणागुम् राजा अप्येषागस्तवतिर्हतः अथो माताथो पिता अथो स्थौरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावन्द्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जह्मयोः आदधामि तथा हि तत् कण्वन्नते ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञवतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु निमदे शं चतुष्पदे ॐ शान्ति 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 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रवात् स भूमिः विश्वतो भृत्वा अत्यतिष्ठद्रशाङ्गुरम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्छवव्यम् उतामृतत्वस्येषानः यदन्येनातिरोहति एतावानस्य महिमा अथो ज्यायागश्च पुरुषः पादो च विश्वा भूतानि त्रिवादस्य मृतम् दिवि त्रिवादोऽर्थौ दैत्पुरुषः पादोश्चेन भवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अवि तस्माजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चात् भूमिमथो पुरः यत्पुरुषेण हविषा देवाय यमतन्वता वसन्तो अस्यासेदाज्यम् ग्रीष्म इद्म शरद्रविः सप्तास्यासत्परिधयः त्रिसप्त समिदः कृता देवायत्यज्ञन्तन्वानाः अवद्धत्पुरुषम् पशुम् तम् यज्ञम् परिहिषि प्रोक्षन्न पुरुषम् जातमक्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माज्ञात् सर्वऋतः समृदम् पृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्या ग्राम्याश्च ये तस्माज्ञात् सर्वमृतः रचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यदस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादकः गावो अजज्ञिरे तस्मात् तस्माज्जात अजावयः यः पुरुषम् यददुः कथिना व्यकल्पयन् mukham kimasya kau bahu kauru pada ucete brahmano asya mukham asit bahu rajanya kratama auru tadasya vaishya abhyagum shudra ajayata chandrama manaso jatava chakshu surmyo ajayata mukhanindrascha agnischa prana vayurajayata nabhya asidantariksham sheshno dhyo savavattata padhya muvidnishasrotraat tatha lokagam akalpayan vedhaya vetam purusham mahantam anityavarnam tamasastu pare sarvani rupani vichitya niraha namani krutva vivadan yadaste dhata purastadhya muda jahara chakra pravidvan pranishastra dasrava tamevam vidvan amrita iha bhavati nanya pantha ayanaya vidyate yajnena yajnamaya janta deva tani dharmani prathamanyasan tehanakam mahimanasachante yatramurve sadhya sante deva adhyasambhuta prathivyairasa accha vishvakarmanas samavattatade tasya tvasta vidata rupamete tatpurushasya vishvamaja namakre vedahametam purusham mahantam anityavarnam tamasa parastat tamevam vidvan amrita iha bhavati nanya pantha vidyate yanaya prajapanischarati garbhe antah ajayamano bahudha vijayate tasya dhira parijananti yonim marichena padamichyanti vedasah yo devebhya atavate yo devanam purohitah purvo yo devebhyo jatah namo ruchaya brahmahe ruchaṁ brahmaṁ janayantaha deva agre tadabhruvanna yastvaivam brahmano vidyāt tasya deva haśanvase tescha te lakshmescha vatyau ahorātre pārśve nakshatrāni rūpam ashvino yattam istam manishana amum manishana sarvam manishana tachayo ravruni mahi gatum yajnaya gatum yajnavatahe daive svastirastunaha svastirmanushebhyaha ऊर्ध्वं जिगातु वेषजं शन्नो हस्तुर्निमदे शं च दुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ भद्रं कर्णे विश्रणयामदेवाः भद्रं पश्ये माक्षवीर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुं सस्तनोभिः यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पति दधातु ॐ शान्ति शान्ति शान्तिः। ॐ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः ब्रह्मा ऋषिः गायत्री छन्दः आदित्यो देवता हंसः सोऽहमग्निनारायण युक्तम् वेजम् हृल्लेखा शक्तिः यदादिसर्गसंयुक्तम् कीलकम् चतुर्विधमुरुषार्थसिद्ध्यर्थे विनियोगः षट्स्वरारूढेन वेजेन षडङ्गम् रक्ताम्बुजसंस्थितम् सप्ताश्वरधिनम् हिरण्यवर्णम् चतुर्भुजम् पद्मद्वयाभयवरदहस्तम् कालचक्रप्रणेतारम् श्रीसूर्यनारायणम् य एवम् वेद स वै ब्राह्मणः। ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न प्रचोदयात्। सूर्य आत्मा जगतस्तश्च सूर्या द्वे खल्विमा निभूता निजायन्ते सूर्या यज्ञ पर्जन्यो नमात्मा नमस्ते आदित्य त्वमेव प्रत्यक्षम् कर्म कर्तासि त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् विष्णुरसि त्वमेव प्रत्यक्षम् रुद्रोऽसि त्वमेव प्रत्यक्षम् मृगसि त्वमेव प्रत्यक्षम् यजुरसि त्वमेव प्रत्यक्षम् सामासि त्वमेव प्रत्यक्षमथर्वासि त्वमेव सर्वम् छन्दोऽसि। आदित्यायुर्जायते आदित्यार्जायते आदित्यादापो जायन्ते आदित्याज्योतिर्जायते आदित्याद्व्योमदिशो जायन्ते आदित्यादेवा जायन्ते आदित्यावेदा जायन्ते आदित्यो वा एष एतन्मण्डलम् तवते असावादित्यो ब्रह्मा आदित्यो अन्तःकरणमनो बुद्धिचित्ताहङ्काराः आदित्यो वै ज्ञानसमानो दानोपानः प्राणः आदित्यो वै श्रोत्रचक्षुरसनघ्राणाः आदित्यो वै वाक्पाणिपादपायुपस्थाः आदित्यो वै शब्दस्पर्शरूपरसगन्धाः आदित्यो वै वचनादानगमनविसर्गानन्दाः आनन्दमयो विज्ञानमयो विज्ञानघन आदित्यः। नमो मित्राय मानवे मृत्योर्मा पाहि राजिष्णवे विश्वहेतवे नमः। शौर्या भवन्ति भूतानि शौर्येण पालितानि तु शौर्ये लयम् प्राप्नुवन्ति सूर्य सोऽहमेव च। चक्षुर्न देव सविता चक्षुर्न उत पर्वतः चक्षुर्नात ददातु नः। आदित्याय विद्महे सहस्रकिरण यदीमहि तन्नः सूर्य प्रचोदयात्। सविता पुरस्ता सविता पश्चात्ता सवितोत्तरात्ता सविता धरात्ता सविता नः सुवतु सर्वता तेगुम् सविता नो रासता दीर्घमायुः। ओमित्येकाक्षरम् ब्रह्म कृणरिति द्वे अक्षरे सूर्यमित्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एतस्यैव सूर्यस्याष्टाक्षरो मनुः यत्सदा हरवत्यवति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सौर्याभिमुखो जप्त्वा व्याधिमया प्रमुच्यते अलक्ष्मीर्नश्यति अभक्षभक्षणात् पौतो भवति अगम्यागमनात् पौतो भवति पतितसम्भाषणात् पौतो भवति अथ सम्भाषणात् पौतो भवति मध्याग्ने सौर्याभिमुख पडेत् सन्ध्योत्पन्न पञ्चम पाचका प्रमुच्यते सैषा सावित्रे विद्या न किञ्चिदव न कस्मैश्चित् प्रसंसवेत् येता महाभाग प्रात पणति स भाग्यवान् जायते पशो विन्दते वेदार्थम् लभते त्रिकालमेतज्जप्त्वा क्रतुशतबलमवाप्नोति हस्तादित्ये जमति समामृत्युम् करति समामृत्युम् करति य एवम् वेदा इत्युपनिषत् भद्रम् कर्णे विशृणुयामदेवा भद्रम् पश्येमाक्षभिर्यजत्रा स्थिरैरङ्गै स्तुष्टवानुस्वस्तनोभिः यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्षो हरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु शान्ति शान्ति शान्तिः पुरुषस्य विद्मसहस्राख्यस्य महादेवस्य धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नश्यन्मुख प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णमक्षाय धीमहि तन्नो गरुड प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् वज्रनखाय विद्महे तेक्ष्णदग्स्त्राय धीमहि तन्नो नारसिगुम्म प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्य प्रचोदयात् वैश्वानराय विद्महे दानीलाय धीमहि तन्नो अग्नि प्रचोदयात् कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गि प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ता ज्ञानेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति